इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निर्मली तिवारी अथ वार्ताः राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य संसदः संयुक्तोपवेशनम् सम्बोधयिष्यति। राष्ट्रपतेः अभिभाषणानन्तरं संसदः उभयोः सदनयोः धन्यवादप्रस्तावः प्रस्तोष्यति। एतस्मिन् प्रस्तावे सदस्यैः चर्चा विधास्यते। ध्येयं वर्तते यत् अष्टादश्याः लोकसभायाः प्रथमं सत्रं विगत सोमवासरादेव समारब्धम्, अपि च अद्यारभ्य राज्यसभायाः सत्रं समारप्स्यते। भारतीय जनता पार्टीति दलस्य वरिष्ठनेता सांसदः च ओम बिरलाः अनवरतं द्वितीयवारं अष्टादश्याः लोकसभायाः अध्यक्षः चितः। असौ ध्वनिमतेन अध्यक्षपदाय चितः जातः। विपक्षदलेन अस्मैपदाय कांग्रेसदलीयः सांसदः के सुरेशः स्वीय प्रत्याशी उद्घोषितः, परञ्च तस्य कृते अनेन दलेन सदने मतदानाय बलं न प्रदत्तम्। अध्यक्षपदस्य निर्वाचनानन्तरं प्रधानमन्त्री नरेन्द्रमोदी, विपक्षस्य च नेता राहुलगांधी अथ च संसदीय कार्यमन्त्री किरण रिजिजुः श्रीबिरलाः अध्यक्षस्य आसनं समीपं नीतवन्तः। इतः पूर्वं यदा अद्य प्रातः सदनस्य उपवेशनं समारब्धम् यदा ह्यः प्रातः सदनस्य उपवेशनं समारब्धम् तदा प्रधानमन्त्री अपि च राष्ट्रिय जनतांत्रिक संयुतेः द्वादश अन्ये च नेतारः श्रीबिरला इत्यस्मै अध्यक्षपदनिर्वाचनस्य प्रस्तावं प्रख्यापितवन्तः। निर्वाचितः अध्यक्षः श्रीबिरलाः अभ्यक्तवान् यत् सदनगत मूल्यानां लोकतांत्रिक परम्पराणाञ्च समृद्धिः तस्य प्राथमिकता भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षपदाय निर्वाचिताय श्रीबिरला इत्यस्मै शुभकामनाः अयच्छत्। विपक्षस्य नेता राहुलगांधी अपि तस्मै वर्धापनानि प्रदत्तवान्। जम्मू कश्मीरे ह्यः डोडा जनपदस्य एकस्मिन् वनक्षेत्रे सुरक्षाबलैः सह जाते संघर्षे त्रयः आतंकवादिनः व्यापादिताः। आकाशवाण्याः जम्मू संवाददाता सूचितवान् यत् द्वयोः आतंकवादिन्योः प्रहारानन्तरं सुरक्षाबलेन आरक्षिबलेन च गहनान्वेषणमध्ये ह्यः प्रातः 50:09 डोडा जनपदस्य गन्दोह क्षेत्रस्य बजाद ग्रामे भुशुण्डिका प्रहारं कृतम्। तदनन्तरं प्रत्युत्तरे इयं घटना जाता। उत्तर अटलांटिक परिषदा नाटो इत्याख्येन निवर्तमानः डच प्रधानमन्त्री मार्क रूट इत्येषः उत्तर अटलांटिक संधि संघटनस्य महासचिवः नियुक्तः। संघटनेन स्वीय वक्तव्ये कथितं यत् श्रीरूटः अक्टूबर मासस्य प्रथमे दिनांके नाटो इत्येतस्य महासचिवत्वेन पदभारं स्वीकरिष्यति। एषः महासचिवः समन्वयाय उत्तरदायी भवति। अद्य जून मासस्य 27 दिनांके विश्व सूक्ष्म लघु मध्यम उद्यम दिवसः आमान्यते। अत्रावसरे एसोचैम द्वारा ह्यः अद्य च उत्तरप्रदेशस्य राजधान्यां लखनऊ नगरे द्विदिवसीयस्य एमएसएमई इत्याख्यस्य सम्मेलनस्य आयोजनं क्रियते। आकाशवाण्याः वार्ताहरेण एकेन सूचितं यत् अस्य सम्मेलनस्य प्रथमे दिने उत्तरप्रदेश प्रशासनस्य एमएसएमई मन्त्री राकेश सचानः उद्घाटनं विहितवान्। सम्मेलनं सम्बोधयन् असौ कथितवान् यत् उत्तरप्रदेशं 1 ट्रिलियन डॉलर मितस्य अर्थव्यवस्थां निर्मातुं सूक्ष्म लघु मध्यम उद्यमस्य महती भूमिका परिलक्ष्यते। एतदर्थम् अस्योद्यमस्य संवर्धनमपि भवेदिति।